ओम अधषष्ठो अध्यायः परस्परं ईश्वरत्वाभिमानिनो विष्णु ब्रह्मणोर्युद्धे क्षिप्त पाशुपतास्त्र भीतानाम अमरानाम कैलासयात्रा। नंदिकेश्वर उवाच पुरा कदाचित् योगींद्र विष्णुर् विषधरासनः सुष्वाप परया भूत्या स्वानुगैर् अपि संमृदः यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदाम्बरः अपृच्छत् पुण्डरीकाक्षं शयानं सर्वसुन्दरं तस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि तृप्तवत् उत्तिष्ठवत्स मां पश्ये तव नाथमिहागतम् आगतम् गुरुमाराध्यम् दृष्ट्वा यो दृप्तवच्चरेत् द्रोहिणस्तस्य मूढस्य प्रायश्चित्तम् विधीयते। इति श्रुत्वा वच क्रुद्धो बहिः शान्तवदाचरन् स्वस्ति ते स्वागतम् वत्स तिष्ठपीठमिदो विष किमु ते व्यग्रद्वक्त्रम् विभाति विषमेक्षणम् ब्रह्मोवाच वत्स विष्णो महामानमागतम् कालवेगतः पितामहश्च जगद पाता च तव वत्सका। विष्णुरुवाच मत्स्थम् जगदिदम् वत्स मनुषे त्वम् हि चोरवत् मन्नाभिकमला जातः पुत्रस्त्वम् भाषसे वृथा। नन्दिकेश्वर उवाच एवम् हि विवदतोस्तत्र मुग्धयोरजयोस्तदा अहमेव वरो न त्वम् अहम् प्रभुरहम् प्रभुः परस्परम् हन्तुकामौ जग्रदुः समरोद्यमम् ययुधातेमरौ वीरौ हंसपक्षीन्द्रवाहनौ वैरञ्च्या वैष्णवाश्चैवम् यथो युयुधिरे तदा। तावद्विमानगतयः सर्वा वै देवजातयः दिदृक्षवः समाजग्मुः समरम् तम् महाद्भुतम् क्षिपन्तः पुष्पवर्षाणि पश्यन्तः स्वैरमम्बरे। सुपर्णवाहनस्तत्र क्रुद्धो वै ब्रह्म वक्षसि मोच बानान सहान् अस्त्रां च विविधान् बहून् मोचाधविधि क्रुद्धो विष्णोर् उरसि दुःसहान् बानान् अनल सङ्काशानस्त्राम् च बहुशस्तदा तदाश्चर्यमिति स्पष्टम् तयोः समरगोचरम्। समीक्ष्य दैवदगणाः सशंसुर्भृशमाकुलाः ततो विष्णु ससंक्रुद्धः श्वसन्त्यसनकर्षितः माहेश्वरास्त्रम् मतिमान् सन्दधे ब्रह्मणोपरि ततो ब्रह्माभृशम् क्रुद्धः कम्पयन् विश्वमेव हि अस्त्रम् पाशुपदम् घोरम् सन्दधे विष्णुवक्षसि ततस्तदुत्थितम् व्योम्नि तपनायुतसन्निभम् सहस्रमुखमत्युग्रम् चण्डवादभयङ्करम् अस्त्रद्वयमिदम् तत्र ब्रह्म विष्णोर्भयङ्करम् इत्थम् बभूव समरम् ब्रह्म विष्णोः परस्परम् ततो देवगणाः सर्वे विषण्णा भृजमाकुलाः ऊचुः परस्परम् तातराजक्षोभे यथा द्विजाः सृष्टिस्थितिश्च संहारस्थिरोभावोऽप्यनुग्रहः यस्मात्र वर्तते तस्मै ब्रह्मणे च त्रिशूलिने अशक्यम् अन्यैर्पदनुग्रहम् विना तृणक्षयोऽप्यत्र यदृच्छया क्वचित् इति देवाभयम् कृत्वा विचिन्वन्तः शिवक्षयम् जग्मुः कैलासशिखरम् यत्रास्ते चन्द्रशेखरः दृष्ट्वैवम् अमराहृष्टाः पदम् तत्पारमेश्वरम् प्रणेमुः प्रणवाकारम् प्रविष्टास्तत्र सद्मनि तेऽपि तत्र सभामध्ये मण्डपे मणिविष्टरे विराजमानमुमया ददृशुर्देवपुङ्गवम् सव्योत्तरेतरपदम् तदर्पितकराम्बुजम् स्वगणैः सर्वतो जुष्टम् सर्वलक्षणलक्षितम् वीज्यमानम् विशेषज्ञैः स्त्रीजनैस्तीव्रभावनैः शंस्यमानम् सदा वेदैरनुगृह्णन्तमीश्वरम् दृष्ट्वैवम् ईशममराः सन्तोषसलिले क्षणाः दण्डवद्दूरतो वत्स नमश्चक्रुर्महागणाः तानवेक्ष्यपतिर्देवान् समीपे चान्नयद्गणैः अथ संह्लादयन् देवान् देवो देवशिखामणिः अवोचद् अधगम्भीरम् वचनम् मधुमङ्गलम्। इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् षष्ठोऽध्यायः। ओम्।